एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली भाषते नेत्र विक्रम चन्द विप्लव समूहेन सह वार्ताम् विदाय समस्या शीघ्रम् समाधास्यते। झापा जनपदस्य कमल ग्रामपालिकायाः सप्तमवडा क्षेत्रे नेपालस्य विपुलोत्तम औद्योगिक क्षेत्रस्य चीन नेपाल मैत्रोद्योगिकोद्यानस्य शिलान्यासं विदधान प्रधानमन्त्री ओली विप्लव समूहस्य समस्यायाः वार्ताया समाधानाय दृढताम् अभिव्यनक। प्रधानमन्त्री ओली ह्य एव झापा जनपदस्य विभिन्नेषु स्थानेषु निर्मितानां पञ्चानां सेतूनाम् उद्घाटनेन एकत्रिंशतः सेतूनां शिलान्यासेन च विकासेन तीव्रगति प्राप्तेति सर्वेषां समक्षं स्पष्टीभूतमिति अवोचत्। नेपालः विपन्न राष्ट्रात् स्तरोन्नतिं विधाय विकासशील देशे परामृष्टो स्थिति चर्चयन् प्रधानमन्त्री ओली देशस्य आत्मनिर्भरतायाः अभियानं स्वस्य प्राथमिकता स्थिति अकथयत्। प्रधानमन्त्री ओली प्रतिनिधि सभाया पुनस्थापनाम् अभ्यर्थयन् अविश्वास प्रस्तावम् पारितीकृत्य दर्शयितुम् आह्वयत। औद्योगिकोद्यानस्य निर्माणे विहितम् सहकार्यम् आलक्ष्य चीनदेशीय सर्वकाराय जनतायै च प्रधानमन्त्री ओली धन्यवादम् व्याहरत्। समारोहे भौतिक पूर्वाधार यातायात मन्त्री वसन्त कुमार नेवांग अवदत् अतः परम् देशे सेतु प्रवृत्ति समस्यानाम् कुत्रापि अनुभवस्य अवस्था नोत्पत्स्यते। उद्योग वाणिज्यापूर्ति मन्त्री लेखराज भट्ट अकथयत् सर्वकारेण आराष्टम् औद्योगिकोद्यानानि संस्थाप्य देशः औद्योगिकयुगम् प्रति प्रवेशितो वर्तते। झापा जनपदस्य कमलग्रामपालिकायाः सप्तमवडा क्षेत्रस्य गौराधा ग्रामस्य पञ्चमवडा क्षेत्रस्य दमक नगरपालिकायाः दशमवडा क्षेत्रस्य च संगमस्थले एकशताधिक सहस्र द्वय विघा मितायाम् भूमौ औद्योगिकोद्यानम् निर्मास्यमानम् वर्तते। औद्योगिकोद्यानस्य निर्माणाय चीन सर्वकारस्य 65 अब्जानि रूप्यकाणि व्यय भविष्यन्ति। राष्ट्रपतिः विद्यादेवी भण्डारी कथयति गुणस्तरीय शिक्षाया शैक्षिक पूर्वाधारस्य च विकासाय नीतिगत रूपेण विधिगत रूपेण कार्यक्रमगत रूपेण च विहितानाम् व्यवस्थानाम् क्रियान्वयनम् विधेयम्। शीतल निवास वर्तिने राष्ट्रपति भवने ह्य आयोजिते विमर्शन कार्यक्रमे राष्ट्रपतिः भण्डारी अवोचत् बालबालिकानां व्यक्तित्वस्य विकासाय प्रथम पाठशाला गृहपरिवारः सुरक्षितं सामाजिक वातावरणञ्च वर्तेते। राष्ट्रपतिः भण्डारी समाजे समावयस्य रूपेण दृष्टयोः बाल दुर्व्यवहारस्य बाल यौन हिंसायाश्च न्यूनीकरणाय आधारभूत स्तरादेव विद्यार्थिनां शिक्षकाणां समुदायस्य च सामूहिक प्रयासः आवश्यकोऽस्तीत्यत्र बलं प्रादात्। कार्यक्रमे शिक्षा विज्ञान प्रविधि मन्त्री कृष्णगोपाल श्रेष्ठः कोविड 19 महामार्या प्रभावितानां विद्यालयानां समस्यां प्रति सर्वकारः संवेदनशीलो स्थिति चर्चयन् अवोचत् एतेषां विद्यालयानां समस्यां समाधातुम् आवश्यकः प्रयासः विधीयते। नेपाल कम्युनिष्ट पार्टी प्रचण्ड नेपाल समूहस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः ह्य सर्वोच्च न्यायालये उपस्थाय न्यायालयस्य अपहेलन विषये लिखितम् उत्तरं प्रस्तौत। सर्वोच्च न्यायालये लिखितमुत्तरं प्रस्तुवन् अध्यक्ष प्रचण्डः स्वतन्त्रायाः सक्षमायाश्च न्यायपालिकायाः प्रभावकारी कार्यम् आत्मना विधातुं न शक्यते इत्यवोचत्। अध्यक्षेण प्रचण्डेन उत्तरे आत्मना सार्वजनिक सभायां न्यायालये विचाराधीन विषये कथनस्य अपेक्षया कार्यकारिणः दुराग्रहस्य संविधान विरुद्धस्य कार्यस्य च विषये जनता संसूचिता आत्मनः धारणा अभिव्यक्तेति च चर्चयता एतेन कार्येण न्यायालयस्य अपहेलनं भवितुं न शक्नोतीति उल्लिखितं वर्तते। स्वास्थ्य जनसंख्या मन्त्री हृदय त्रिपाठी कथयति अस्यैव फाल्गुन मासस्य 23 दिवसात् प्रारप्स्यमानं कोरोना विरोधी द्वितीय चरणस्य टीकाकरणाभियानं प्रभावकारी विधातुं स्तरत्रयस्यैव सर्वकारै संयुक्त प्रयासा अग्रे वर्धापितो वर्तते। मन्त्रालयेन ह्य काष्ठमण्डपे आयोजितायां विभिन्न संचार माध्यमानां सम्पादकैः सह अन्तरक्रियायां मन्त्री त्रिपाठी 55 अधिक वयस्काः व्यक्तयः संवेदनशीलाः अधिक संकटग्रस्त क्षेत्रञ्च वर्तन्ते इत्यतः सर्वकारेण पूर्ण दायित्वेन टीकाकरणाभियानं सञ्चाल्यमानं वर्तते इत्यज्ञापयत्। मन्त्री त्रिपाठी अगदत् नेपालेन प्रयुक्तं कोविडशील्ड नामकं टीकाकरणं विश्वस्य 75 देशैः प्रयुज्यमानमस्तीत्यतः टीकाकरणस्य सुरक्षाया विषये सर्वकारः पूर्णतः विश्वस्तो वर्तते। मन्त्री त्रिपाठी प्राथमिकतायां स्थापिताय समुदायाय सर्वकारस्य पक्षतो निःशुल्कं टीकाकरणं विधाय नैजक्षेत्राय टीकाकरणस्य आयताय टीकाकरण कार्यक्रम सञ्चालनाय च अनुमतिः प्रदास्यते इति असूचयत्। कार्यक्रमे मन्त्रालयस्य सचिव लक्ष्मण अरियालः कृतानां 20 लक्षणं टीकाकरणं करणानां मध्ये दशलक्षाणि टीकाकरणानि आनीतानि सन्ति, अवशिष्ट दशलक्षाणि आनयनस्य क्रमे वर्तन्ते एवं अतिरिक्तानां पञ्चाशतो लक्षाणां टीकाकरणानां क्रयणाय पूर्वकार्यम् अन्तिमचरणे प्राप्तमस्ति इति अज्ञापयत्। नेपाले कोरोना संक्रमणात् ह्य अतिरिक्तात् 82 जना मुक्ता सन्ति, एवमेव ह्य आराष्ट्रम् 78 जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। कोरोना संक्रमणेन ह्य अतिरिक्तः जनैको मृतः। एतदनु संक्रमणेन नेपाले ह्यस्तनावधि मृतानां जनानां समग्र संख्या 1274777 प्राप्यति। स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। रेडियो नेपालस्य आयोजनायां समावेशी कार्यक्रम समाचाराणां विषय चयनं समुदायस्य सहभागिता चेति विषयिणी अन्तर्क्रिया प्रशिक्षणं च ह्यः पोखरायां प्रारब्धे स्तः। अन्तर्क्रियां प्रशिक्षणं च उद्घाटयन् गण्डकी प्रदेशस्य मुख्यमन्त्री पृथ्वी सुब्बा गुरूङ अवोचत्, रेडियो नेपालः राष्ट्रस्य सबल संचार माध्यमस्य रूपेण संस्थापनीयः। मुख्यमन्त्री गुरूङ रेडियो नेपालस्य कार्यक्रमाणां प्रभावकारितायै एतस्य प्रतिष्ठायाः संरक्षणाय च समयानुसारेण प्रविधिना सह संयोजनस्य आवश्यकतां प्रादर्शयत्। कार्यक्रमे गण्डकी प्रदेशस्य आन्तरिक विषय विधि मन्त्री हरिबहादुर चुमान, रेडियो नेपालेन समयानुसारेण प्रविधिम् पूर्णतः उपयुज्य आत्मना श्रेष्ठता प्रमाणी कर्तव्यति विचारं व्यक्तवान्। रेडियो नेपालस्य कार्यकारी निर्देशक बुद्धिबहादुर केसी अब्रवीत, रेडियो नेपालस्य प्रत्येकं कार्यक्रमं सरलं सहजं च विधातुं प्रविधे रूपान्तरणेन रेडियो प्रसारणम् अतिरिक्तं परिष्क्रियते। कार्यकारी निर्देशक केसी, रेडियो नेपालस्य प्रत्येकं कार्यक्रमस्य अतिरिक्तं प्रभावकारितया न केवलं श्रवणयोग्यया अपितु विलोकनयोग्यया नवीनकार्ययोजनया च सह अग्रे वर्धितमस्तीति अबोधयत्। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादेवा विदेन दलस्य पुरातन नेतृ पूर्व साम सदस्य च डाक्टर शंकर प्रसाद उप्रेतिनो निधनं प्रति दुःखं व्यक्तं वर्तते। सभापति देववा ह्य शोक विज्ञप्ति प्रकाशयन् उप्रेति इत्यस्य निधनात् आत्मना एकं पुरातनं मित्रं दलेन एकः निष्ठावान् अग्रज समाजेन सक्रिय समाजसेवी च हापिता इति ज्ञापितवान्। राजस्वानुसन्धान विभागेन विराटनगर महानगरपालिकाया नौवडा क्षेत्रस्थिताया बाबा फ्लोर मिल्स प्राली उत्पादनशालाया संचालकेन गोपाल फ्लोर मिल उत्पादनशालाया मुख्य व्यवसायिना च सुरेश कुमार राठी इत्यनेन सहितानां त्रयाणां जनानां विरूद्धे पाटनवर्तिनी उच्च न्यायालये ह्य आर्थिकापराधसम्बद्धं न्यायिक प्रकरणं पञ्जीकारितं वर्तते इति समाचारः।